षष्ठोऽध्यायं प्रारम्भः। ॐ नागाधीश्चरविश्चराम्भणिभणोत्तंसोरुरत्नावली भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासितां माला कुम्भकपालनीरजकरां चन्द्रार्धचूडां परां सर्वज्ञेश्चरभैरवाङ्कणलयां पद्मावतीं चिन्तये। ॐ ऋषिरुवाच इत्याकर्ण्य वचो देव्याः सदूतो मर्षपूरिद समाचष्ट समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट्टतः सक्रोधप्राह दैत्यानामधिपं धूम्रलोचनं हे धूम्रलोचनाशुत्वं स्वसैन्यपरिवारितः तामानय बलात् दृष्टां केशाकर्षण विह्वलां तत्परित्राणदः कश्चित् यदि वोत्तिष्ठते परः सहन्तव्यो मरो वापि यक्षो गन्धर्व एव वा। ऋषिर्वाच तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः वृतसृष्ट्या सहस्राणामसुराणां द्रुतं ययौ। स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थितां जगादोच्चै प्रजागीति मूलं शुम्भनिशुम्भयोः न चेत् प्रीत्याच्च भवति मद्भर्तारमुपैष्यति। ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् देव्युवाच दैत्येस्तरेण प्रहितो बलवान् बलसंवृतः बलान्नयसि मामेवम् ततः किं ते करोम्यहम्। ऋषिर्वाच इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः हूङ्कारेणैव तं भस्मसाच्चकाराम्बिका ततः अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ववर्षसाजकैस्तीक्ष्णैस्तथा शिक्ति परश्वसैः। ततो धृतसटः कोपात् कृत्वा नादं सुभैरवं पपातासुरसेनायां सिंहो देव्यास्तवाहनः कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् आक्रम्य चाधरेणान्यान् स जघान महासुरान् केषाञ्चित् पाटयामासानखैः कोष्ठानि केसरी तथा तलप्रकारेण शिरांसि कृतवान् पृथक् विच्छिन्नबाहुशिरसः कृतास्तेन तथा परे पपौ च रुचितम् ओष्ठारण्येषाम्धृतकेसरः क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना तेन केसरिणा देव्या वाहनेनाधिकोपिना श्रुत्वा तमसुरं देव्या निहन्तं धूम्रलोचनम् बलं च क्षयितुं कृत्स्नं देवी केसरिणा ततः चुकोप दैत्याधिपतिशुम्भः प्रस्फुरिताधरः आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्ड बलैर्बहुभिः परिवादितौ तत्र गच्छत गत्वा च सा समानीयतां लघु केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि तदा शेषायुधैः सर्वैरसुरैर्विनिहन्यताम् तस्यां हतायां दुष्टायां सिंहे च विनिपातिते। शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्। इति श्रीमार्कण्डेयपुराणे सावल्लिके मन्मन्त्रे देवी महात्ये शुम्भनिशुम्भ सेनानी धूम्रलोचन वधो नाम षष्ठोऽध्यायः।